अस्ति हस्तिनापुरे विशालः नाम रजतः तस्य गर्दभः अतिवाहनात् दुर्बलः मुमूर्षुः इव अभवत् ततः तेन रजकेन असौ व्याघ्रचर्मणा प्रच्छाद्य अरण्यसमीपे सस्यक्षेत्रे नियुक्तः ततः दूरात् तम् अवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरम् पलायन्ते अथ एकदा केन अपि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनुःकाण्डम् सज्जीकृत्य आनतकायेन एकान्ते स्थितम् तम् च दूरात् दृष्ट्वा गर्दभः पुष्ट अङ्गः यथा इष्ट सस्य भक्षण जात बलः गर्दभी इयम् इति मत्वा उच्चैः शब्दम् कुर्वाणः तद् अभिमुखम् धावितः ततः तेन रक्षकेण गर्दभः अयम् इति चीत्कारशब्दात् निश्चित्य लीलया व्यापादितः।